महामंगल सूक्त
बहुदेवामनोसाच मंगलानि अचिन्तयु आकंखमानासोथानं ब्रूहि मंगलमुत्तमं असेवनाच बालानं पंडितानं च सेवना पूजा च पूजनीयानं एतं मंगलमुत्तमं पतिरूपदेशवासो च पुब्बे च कतपुञ्यता अत्तसमापणिधि च एतं मंगलमुत्तमं बाहुसचं च सेपं च विनयो च सुशिक्षितो सुभाषिता च या वाचा एतं मंगलमुत्तमं माता पितुः पठानं पुत्तदारस्य संगहो अनाकुला च कम्मन्ता एतं मंगलमुत्तमं दानं च धम्मचर्या च ज्ञातकानं च संगहो अनवज्जानि कम्मानि एतं मंगलमुत्तमं आरती विरती पापा मज्जपाना च संयमो अप्पमादो च धम्मेषु एतं मंगलमुत्तमं गारवो च निवातो च संतुठी च कतयुता कालेन धम्म सवनं एतं मंगलमुत्तमं कंती च सोवच्च सता समनानं च दस्सनं कालेन धम्म साकच्छा एतं मंगलमुत्तमं तपो च ब्रह्मचर्या च आर्यसच्चान दस्सनं निब्बान सच्चिकिर्या च एतं मंगलमुत्तमं पुट्ठस्स लोकधम्मेहि चित्तं यस्सनकं पति अशोकं विरजं खेमं एतं मंगलमुत्तमं एतादिसानि कत्वान सबथं अपराजिता सबथ सोथि गच्छन्ति तं ते सं मंगलमुत्तमं ते।